इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। भारत न्यूजीलैंड दलयोः मध्ये दुबई नगरे आईसीसी चैंपियंस ट्रॉफी इति क्रिकेट स्पर्धा मालिकायाः बहुप्रतीक्षित निर्णायक स्पर्धायां न्यूजीलैंड दलेन 25-200 धावनांकानां विजय लक्ष्यं प्रदत्तम्। केन्द्रीय गृह सचिवः गोविंद मोहनः अद्य जम्मू नगरे केन्द्रशासित प्रदेशे सुरक्षा स्थितेः विषये उच्चस्तरीय समीक्षा सभायाः अध्यक्षतां कुर्वन्नस्ति। भारतेन कैलिफोर्नियायां हिन्दू मन्दिरस्य क्षतेः निन्दा कृता। प्रकरणेऽस्मिन् संलग्नानां विरुद्धं दृढकार्याचरणाय निवेदिता। सीरियायां देशस्य सुरक्षाबलानाम् अपदस्थ राष्ट्रपतेः बसर अल असद इत्यस्य समर्थकानां च मध्ये दिनद्वयं यावत् प्रवृत्तासु हिंस्रघटनासु मृतकानां संख्या 1,000+ संजाता। अपि च जम्मूकश्मीर राज्ये गुलमर्गस्य स्की रिसॉर्ट इति अद्यारभ्य 25,000+ खेलो इंडिया शीतकालिक क्रीडायाः पञ्चमसंस्करणस्य द्वितीयचरणस्य आयोजनं कर्तुं सज्जः अस्ति। अथ वार्ताः विस्तरेण। भारत न्यूजीलैंड दलयोः मध्ये दुबई नगरे आईसीसी चैंपियंस ट्रॉफी इति क्रिकेट स्पर्धा मालिकायाः बहुप्रतीक्षित निर्णायक स्पर्धायां जनेषु प्रबलोत्साहः दृश्यते। न्यूजीलैंड दलेन पणकं विजित्य प्रथम क्रीडनं स्वीकृतम्। अन्तिमवार्ताः लेखनं समयं यावत् न्यूजीलैंड दलेन 50 क्षेपचक्रेषु 7 क्रीडकानां हानौ पुरस्सरं 25-200 धावनांकानां विजयलक्ष्यं प्रदत्तम्। अवधेयं वर्तते यत् सम्पूर्णस्पर्धायां भारतम् अपराजितं वर्तते। भारतीय दलं बांग्लादेश पाकिस्तान न्यूजीलैंड दलानाम् उपरि प्रभावपूर्णं विजयं प्राप्नोत्। तदनन्तरं ऑस्ट्रेलिया देशस्य उपरि रोमांचकरे उपांत्य चक्रे विजयं प्राप्नोत्। केन्द्रीय गृह सचिवः गोविंद मोहनः अद्य जम्मू नगरे केन्द्रशासित प्रदेशे सुरक्षास्थितेः विषये उच्चस्तरीय समीक्षा सभायाः अध्यक्षतां कुर्वन्नस्ति। सत्रद्वये प्रचल्यमाणायां सभायां जम्मू कश्मीर राज्यस्य वरिष्ठारक्षी सुरक्षाधिकारिणः एकत्र समागताः, यत्र सुरक्षापरिदृश्यस्य आकलनं भवति, क्षेत्रे आतंकवादस्य उन्मूलनार्थं रणनीतयः च निर्मिताः भविष्यन्ति। अर्धसैनिकबलानां गुप्तचरविभागानां च शीर्षाधिकारिणः अपि अस्मिन् सत्रे भागं गृह्णन्ति। जम्मूक्षेत्रे केन्द्रीय गृहसचिवेन कार्यभारग्रहणानन्तरं प्रथमा सुरक्षा समीक्षा अस्ति। असौ इतः पूर्वं कश्मीरक्षेत्रं गत्वा परिदृश्यस्य मूल्याङ्कनं कृतवान्। भारतेन कैलिफोर्नियायाः चिनो हिल्स इत्यत्र हिन्दुमन्दिरस्य क्षतेः निन्दा कृता। वार्ताहरानां प्रश्नस्य उत्तरं ददता विदेशमन्त्रालयस्य प्रवक्त्रा रणधीर जायसवालेन उक्तं यत् मन्त्रालयेन स्थानीय विधिप्रवर्तनाधिकारिणः निवेदिताः यत् ते मन्दिरक्षतिप्रकरणे संलग्नानां विरुद्धं दृढकार्याचरणम् आचरन्तु। पूजास्थलानां पर्याप्त सुरक्षां सुनिश्चेतुम् अपि मन्त्रालयेन आग्रह कृतः। सीरियायां देशस्य सुरक्षाबलानाम् अपदस्थ राष्ट्रपतेः बसर अल असद इत्यस्य समर्थकानां च मध्ये दिनद्वयं यावत् प्रवृत्तासु हिंस्रघटनासु मृतकानां संख्या 1,000+ संजाता। गुरुवासरे लताकिया प्रान्ते आरब्धाः हिंस्रघटनाः सम्प्रति भूमध्य सागर तटं यावत् प्रसृता। ब्रिटेन स्थिते युद्ध निरीक्षण समूहेन सीरियन ऑब्जर्वेटरी फॉर ह्यूमन राइट्स इत्यनेन उक्तं यत् 45-700 नागरिकान् अतिरिच्य प्रशासनिक सुरक्षाबलानां 75 सदस्याः अपदस्थ राष्ट्रपतेः बसर अल असद इत्यमुना सम्बद्ध सशस्त्र समूहानां 48-100 यावत् जनाः मृत्युमुपगताः। समूहेन इदमपि उक्तं यत् लताकिया इत्यस्य नैकेषु क्षेत्रेषु जलविद्युदयोः आपूर्तिः बाधिता अस्ति। सीरियायाम् अपदस्थस्य राष्ट्रपतेः असद इत्यस्य अल्पसंख्यक अलावितेः समुदायं विरुध्य प्रशासन समर्थित भुशुण्डी धारिभिः आक्रमणानि विधीयन्ते। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। प्रधानमन्त्री नरेन्द्रमोदी मंगलवासरे मॉरिसस देशस्य द्विदिवसीय यात्रायां यास्यति। गतसायं राजधान्यां नवदिल्ल्यां वार्ताहरैः सह संवादे विदेश सचिवेन विक्रम मिश्री इत्यनेन इदं विवरणम् उपस्थापितम्। तेनोक्तं यत् प्रधानमन्त्री मॉरिसस देशस्य राष्ट्रिय दिवस समारोहे मुख्यातिथिरूपेण सम्मिलितो भविष्यति। श्रीमोदी मॉरिसस देशस्य राष्ट्रपतिना धर्मवीर गोखुलवर्येण सह मिलिष्यति। श्रीमोदी तत्रत्येन संक्षेप नवीन चन्द्र राम गुसाम इत्यनेन अथ च मॉरिसस देशस्य वरिष्ठ नेतृभिः सहापि मेलनं करिष्यति। तत्र भारतीय नौसैन्य पोतेन समं रक्षाबलानां एकं दलमपि समारोहे प्रतिभागं करिष्यति। प्रधानमन्त्री मोदी मॉरिसस देशे भारतवंशिभिः साकं मेलनं करिष्यति। सममेव सिविल सर्विस कॉलेज इत्यस्य क्षेत्रीय स्वास्थ्य केन्द्रस्य च उद्घाटनं करिष्यति। अनयोः द्वयोः प्रतिष्ठानयोः मध्ये निर्माणं भारतस्य अनुदानसाहाय्येन सञ्जातम्। प्रधानमन्त्रिणः यात्रावधौ अनेकेषु सन्धिज्ञापनपत्रेषु हस्ताक्षराणि अपि भविष्यन्ति। संसदः आयव्ययपत्रकसत्रस्य द्वितीयं सत्रं श्वः आरप्स्यते। इदं सत्रम् अप्रैलमासस्य चतुर्थदिनं यावत् प्रचलिष्यति। अत्रावधौ सदनस्य विंशतिः उपवेशनानि भविष्यन्ति। चतुर्विंशत्युत्तरद्विसहस्रं पञ्चविंशत्युत्तरद्विसहस्रवर्षाय अनुदान अध्यर्थनासु विनियोगविधेयकेषु चर्चा मतदानं च भविष्यतः। एतदतिरिच्य बैंकिंग विधि विधेयकं चतुर्विंशत्युत्तरद्विसहस्रतमाब्दं तटीय नौवहन विधेयकं त्रिभुवन सहकारी विश्वविद्यालय विधेयकं ऐषमः आब्रजन विदेशी विधेयकम् अथ च रेलवे संशोधन विधेयकम् समेत्य नैकेषु विधायी कार्येषु चर्चा भविष्यति। एतानि विधेयकानि पारयिष्यन्ते। अवधेयं वर्तते यत् वित्त संकल्पना पत्र सत्रस्य प्रथम चरणं जनवरी मासस्य अन्तिम दिनाद् आरभ्य फरवरी मासस्य त्रयोदश दिनांकं यावत् प्रवर्तितमासीत्। उपराष्ट्रपतिः जगदीप धनखड़वर्यः अस्वस्थतायाः अनन्तरं नवदिल्ल्याः एम्स इत्यत्र प्रवेशितः। उपराष्ट्रपतिः गतरात्रौ चिकित्सालये नीतः आसीत्। सूत्रानुसारि सम्प्रति श्रीधनखड़स्य स्थितिः स्थिरः अस्ति। प्रधानमन्त्री नरेन्द्रमोदी अद्य नवदिल्ल्याः एम्स चिकित्सालयस्य भ्रमणं कृत्वा उपराष्ट्रपति जगदीप धनखड़स्य स्वास्थ्यविषये पृष्टवान्। प्रधानमन्त्रिणा तस्य सुस्वास्थ्याय शीघ्रं स्वस्थतायै च प्रार्थनापि कृता। जम्मूकश्मीर राज्ये गुलमर्गस्य स्की रिसोर्ट इति अद्यारभ्य पञ्चविंशत्यधिकद्विसहस्रतमवर्षीयायाः खेलो इण्डिया शीतकालिक क्रीडायाः पञ्चमसंस्करणस्य द्वितीयचरणस्य आयोजनं कर्तुं सज्जः अस्ति, यत्र हिमपातः बहुप्रतीक्षितस्य आयोजनस्य सुरम्य पृष्ठभूमिं ददाति। लद्दाखराज्ये प्रथमचरणस्य विजेतारः स्वस्य स्थानं संरक्षयितुं प्रयतन्ते। अद्य सायंकाले सार्धषड्वादने औपचारिकम् उद्घाटनसत्रम् आरभ्यते। त्रिदिवसीयेऽस्मिन् कार्यक्रमे अष्टशतं यावत् क्रीडकानां सहभागिता भविष्यति, ये चतुर्षु प्रमुखविषयेषु प्रतिस्पर्धां करिष्यन्ति। जम्मूकश्मीरस्य उपराज्यपालः मनोज सिन्हा उद्घाटनसत्रे भागं भजिष्यति। अन्ते मुख्यवार्ताः पुनः एकवारम्। भारत न्यूजीलैंड दलयोः मध्ये दुबई नगरे आईसीसी चैंपियंस ट्रॉफी इति क्रिकेट स्पर्धा मालिकायाः बहुप्रतीक्षित निर्णायक स्पर्धायां न्यूजीलैंड दलेन 250+200 धावनांकानां विजयलक्ष्यं प्रदत्तम्। केन्द्रीय गृहसचिवः गोविन्द मोहनः अद्य जम्मू नगरे केन्द्रशासित प्रदेशे सुरक्षास्थिते विषये उच्चस्तरीय समीक्षा सभायाः अध्यक्षतां कुर्वन् अस्ति। इति वार्ताः। We'll be right back.